इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। केन्द्रीय मन्त्रिमण्डलेन अद्य क्षेत्रीय सम्पर्क योजना उडान इत्यस्यै दशवर्षाणां कृते स्वीकृतिः प्रदत्ता। केन्द्रसर्वकारेण एलपीजी पञ्जीकरणसीमायां सहैव पेट्रोल डीजल मूल्येषु किमपि परिवर्तनं नैव जातमिति स्पष्टीकृतम्। लोकसभया पारितं 26,2000 उभयलिङ्गि व्यक्ति संशोधन विधेयकम् अद्य राज्यसभया विचारार्थं स्वीकृतम्। अपि च प्रथमः खेलो इण्डिया जनजातीय क्रीडोत्सवः अद्य सायंकाले रायपुर नगरे विधिवत प्रारप्स्यते। अथ वार्ताः विस्तरेण। केन्द्रीय मन्त्रिमण्डलेन अद्य आगामि दशवर्षाणां कृते 40,28,000 कोटिरूप्यकाणां व्ययेन संशोधित उडान इति क्षेत्रीय सम्पर्क योजनायाः विस्तारः स्वीकृतः। नवदेहल्यां मन्त्रिमण्डलस्य उपवेशनानन्तरं सूचना प्रसारण मन्त्री अश्विनी वैष्णवः अवदत् यत् एतस्याः योजनायाः अन्तर्गतं क्षेत्रीय सम्पर्कं वर्धयितुं विद्यमान अविमानपत्तनेभ्यः 100 नूतनानि विमानपत्तनानि विकसितानि भविष्यन्ति। एतेन दुर्गमक्षेत्रेषु वायुसम्पर्कः सुदृढो भविष्यति, तथा च द्वितीय तृतीय श्रेण्याः नगरेषु आर्थिक विकासः व्यापारः पर्यटनञ्च वृद्धिं प्राप्स्यन्ति। योजनायाः अस्याः मुख्यम् उद्देश्यं सामान्य नागरिकेभ्यः सुलभं स्वल्पव्ययुक्तं च विमानयानस्य सौविध्यप्रदानमस्ति। पश्चिम एशिया विषये सर्वकारेण आहूतं सर्वदलीयोपवेशनं संसद्भवन परिसरे प्रचलति। रक्षामन्त्री राजनाथसिंहः उपवेशनस्य अध्यक्षतां कुर्वन्नस्ति, यस्मिन् केन्द्रीयगृहमन्त्री अमितशाहः, विदेशमन्त्री एस जयशंकरः, पेट्रोलियम मन्त्री हरदीपसिंहपुरी, संसदीयकार्यमन्त्री किरेन रिजिजू, जेडीयू कार्याध्यक्षः संजय झाः, राजीवरञ्जनलल्लनसिंहः च उपस्थिताः सन्ति। सर्वकारेण सामाजिकसञ्जालीयमाध्यमेषु प्रसारितानां सूचनानां स्पष्टखण्डनं विहितम्, यत्र प्रधानमन्त्री उज्ज्वला योजनायाः अन्तर्गतं एलपीजी रिफिल इति पञ्जीकरणस्य समयसीमायां परिवर्तनमिति 45 दिनानि यावत् प्रतिपादितम्। पेट्रोलियम प्राकृतिकवातेम्धनमन्त्रालयेन स्पष्टीकृतं यत् एतासु वार्तासु उज्ज्वलेतरायाम् एक कूप्यसंयोजनाय 25 दिनानि तथा च द्विकूप्यसंयोजनाय 35 दिनानि इति यत् तथ्यं प्रसारितं तत् सर्वथा भ्रमात्मकम् अस्ति। मन्त्रालयेन सूचितं यत् ईदृशः कोऽपि परिवर्तननिर्णयः न स्वीकृतः। मन्त्रालयेन प्रतिपादितं यत् रिफिल पञ्जीकरणस्य वर्तमानायां समयसीमायां किमपि परिवर्तनं न जातम्। एषा व्यवस्था पूर्ववत् नगरक्षेत्रेषु 25 दिनात्मिका तथा च ग्रामीणक्षेत्रेषु 45 दिनात्मिका स्थिरा वर्तते। योजनायाः संयोजनस्य वा स्वरूपं किमपि भवेत्, किन्तु पञ्जीकरणनियमः पूर्ववत् अपरिवर्तितः एव स्थास्यति। गुजरातराज्यस्य विधानसभायां समान नागरिकसंहिता यूसीसी इति विधेयकं स्वीकृतम् इति गुजरातराज्यस्य मुख्यमन्त्री भूपेन्द्रपटेलः उक्तवान्। सामाजिकान्तर्जालीये पटले श्रीशाहः अवदत् यत् देशे प्रत्येकस्य नागरिकस्य कृते समानं विधिः भवेत् इति भाजपेति दलस्य आरम्भादेव संकल्पः अस्ति। सः अवदत् यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे भाजपेति दलस्य राज्यसर्वकाराः अस्मिन् विषये निरन्तरम् अग्रे गच्छन्ति। लोकसभया ध्वनिमतेन 26,2000 वित्तविधेयकः पारितः। अस्य विधेयकस्योद्देश्यं 2000 27 इति वित्तीयवर्षाय केन्द्रसर्वकारस्य वित्तीयप्रस्तावनां प्रभावीकरणमिति वर्तते। सदनेन सर्वकारपक्षतः उपस्थापितसंशोधनानां कृते स्वीकृतिः प्रदत्ता। अद्य सदने तावत् वित्त विधेयकस्य चर्चायाः प्रत्युत्तरं प्रयच्छन्ति केन्द्रीय वित्तमन्त्री निर्मला सीतारामनः अवदत् यत् सर्वकारः लघुद्योगानां कृषिकार्याणां सहकारि समितीनाञ्च सशक्तिकरणं कुर्वन्नस्ति यतः एते सर्वे देशस्य वृत्ति संसर्जने उत्पादने सर्वांगीण विकासे च केन्द्रबिन्दवः वर्तन्ते। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। छत्तीसगढ़राज्ये माओवादी संघटनस्य शीर्ष नेत्रा पापाराव इत्यनेन सह आहत्य 18 माओवादिनः अद्य आत्मसमर्पणं कृतवन्तः, यस्मिन् 7 महिलाः सन्ति। पापारावः माओवादी संघटनस्य राज्यक्षेत्र समितेः सदस्यः आसीत्। तस्य उपरि 25 लक्ष रूप्यकाणां पुरस्कारोऽपि आसीत्। आत्मसमर्पणावधौ ते अनेकानि शस्त्राणि अपि समर्पितवन्तः। नवरात्रोत्सवस्य 7 दिवसे प्रधानमन्त्री नरेन्द्रमोदी अद्य भगवत्याः कालरात्र्याः आशीर्वादं गृहीतवान्। सामाजिक सञ्जालीय सन्देशे संस्कृत सुभाषितं प्रकाशयन् श्रीमोदी प्रार्थितवान् यत् देवी कालरात्रिः सर्वेषां जीवने साहसं संकल्पं सफलताञ्च वर्धयेत्। प्रधानमन्त्रिणा प्रतिपादितं यत् देव्याः आराधना भक्तैः सह अभिनवम् आत्मविश्वासं जनयति, सर्वाञ्च नूतनोर्जाभावेन पूरयति। राज्यसभया अद्य 26,000 उभयलिङ्गि व्यक्ति संशोधन विधेयकं विचारार्थम् अनुमोदनार्थञ्च स्वीकृतम्। अयं विधेयकः ह्यः लोकसभया विपक्षिदलानां बहिर्गमनस्य मध्ये ध्वनिमतेन पारितम्। अयं विधेयकः उभयलिङ्गिवर्गं पुनः परिभाषितुं प्रयतते, यस्मिन् स्वप्रत्यक्षीकृतलिङ्गपरिचयस्य प्रावधानं निष्कासितं तथा च केचन सामाजिक सांस्कृतिक परिचयाः ट्रान्स मैस्कुलिन इति वर्गाः च अस्य परिधेः बहिर्कृताः सन्ति। उच्चसदने चर्चां प्रारभमाणा कांग्रेस सांसदा रेणुका चौधरी अवदत् यत् अयं विधेयकः संविधाने प्रदत्तस्य वैयक्तिक गोपनीयतायाः अधिकारं दुर्बलीकरोति। डीएमके सांसदः तिरुचि शिवा अपि विधेयकस्य विरोधं कुर्वन् अवदत् यत् यदि एतत् संसदि बहुमतेन पारितं भवति तदापि सर्वोच्चन्यायालयः एतं निरस्तीकरिष्यति। अपरत्र विधेयकस्य समर्थनं कुर्वन्ति भाजपा सांसदः मेधा विश्राम कुलकर्णी अवदत् यत् उभयलिङ्गी व्यक्तीनां कृते न्यायस्य गरिम्नः अपराधिक प्रक्रियाणां संरक्षणाय तथा च विधिक सुरक्षा निश्चयानाय एतत् विधेयकं महदुपयोगि वर्तते। सा प्रधानमन्त्रिणे नरेन्द्रमोदिने अपि धन्यवादं ज्ञापितवती यत् अनेन संशोधनेन सह वास्तविकाः लाभार्थिनः उचितरीत्या लाभं प्राप्तुं शक्ष्यन्ति। नवदिल्ल्यां 26,000 अन्ताराष्ट्रिय चलचित्र महोत्सवः IFFD अद्य राष्ट्रिय राजधान्यां भारतमण्डपे आरभ्यते। अद्यारभ्य अस्य मासस्य 31 दिनांकपर्यन्तम् अयं महोत्सवः प्रचलिष्यति। दिल्ल्याम् आयोजिते अन्ताराष्ट्रिय चलचित्र महोत्सवे 47 देशानां 30,000+ प्रदर्शनानि प्रदर्श्यन्ते। अस्मिन् कार्यक्रमे विक्की कौशल, हेमा मालिनी, भूमि पेडनेकर, राणा दगुबाती, मधुर भाण्डारकर, सुभाष घई इत्यादयः भारतीय अन्ताराष्ट्रिय चलचित्र क्षेत्रस्य प्रसिद्धाः सदस्याः अपि उपस्थिताः भविष्यन्ति। भारतऋतुविभागेन IMD इत्यनेन श्वः पर्यन्तम् आन्ध्रप्रदेशे, मध्यप्रदेशे, महाराष्ट्रे, तेलंगानाप्रदेशे च वृष्ट्या सह तीव्रवायोः पूर्वानुमानं प्रकटितम्। अद्य छत्तीसगढ़राज्ये प्रथमा खेलो इण्डिया जनजातीय क्रीडा आरभ्यन्ते। अप्रैलमासस्य 3 दिनांकपर्यन्तं प्रचलितासु क्रीडासु एथलेटिक्स, हॉकी, फुटबॉल, धनुर्विद्या, मल्लयुद्धं, भारोत्तोलनं, तरणं इत्यादिषु 7 क्रीडाविभागेषु स्पर्धाः भविष्यन्ति। खेलो इण्डिया जनजातीय क्रीडाः छत्तीसगढ़राज्यस्य रायपुरे, जगदलपुरे, अम्बिकापुरे च आयोज्यन्ते। अस्यां स्पर्धायां सम्पूर्णे देशे प्रायः 30 राज्याणां, केन्द्रशासितप्रदेशस्य च 300+ आदिवासी क्रीडकाः भागं ग्रहीष्यन्ति। इति वार्ताः।